श्री भगवानुवाच परं भूय प्रवक्ष्यामि परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ज्ञानानां ज्ञानमुत्तमम् यज्ञात्वा मुनयः सर्वे यज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः परां सिद्धिमितो गताः इदं ज्ञानमुपाश्रित्य इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता मम साधर्म्यमागताः सर्गेऽपि नोपजायन्ते सर्गेऽपि नोपजायन्ते प्रलयेन व्यतन्ति च प्रलयेन व्यथन्ति च मम यो निर्महत् ब्रह्म मम यो निर्महत् ब्रह्म तस्मिन् गर्भं दधाम्यहम् तस्मिन् गर्भं दधाम्यहम् सम्भवः सर्वभूतानां सम्भवः सर्वभूतानां ततो भवति भारत ततो भवति भारत सर्वयोनिषु कौन्तेय सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः मूर्तयः सम्भवन्ति याः तासां ब्रह्ममहद्योनिः तासां ब्रह्ममहद्योनिः अहं बीजप्रदपिता अहं बीजप्रदपिता सत्वं रजस्तम इति सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः गुणाः प्रकृतिसंभवाः निबध्नन्ति महाबाहो निबध्नन्ति महाबाहो देहे देहिनमव्ययम् देहे देहिनमव्ययम् तत्र सत्वं निर्मलत्वात् तत्र सत्वं निर्मलत्वात् प्रकाशकमनामयम् प्रकाशकमनामयम् सुखसङ्गेन बध्नाति सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ज्ञानसङ्गेन चानघ रजो रागात्मकं विद्धि रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् तृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेय तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजं विद्धि तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनां मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिः प्रमादालस्य निद्राभिः तन्निबध्नाति भारत तन्निबध्नाति भारत सत्वं सुखे सञ्जयति सत्वं सुखे सञ्जयति रजः कर्मणि भारत रजः कर्मणि भारत ज्ञानमावृत्य तु तमः ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत प्रमादे संजयत्युत। रजस्तमश्चाभिभूय रजस्तमश्चाभिभूय सत्वं भवति भारत सत्वं भवति भारत। रजस्सत्वं तमश्चैव रजस्सत्वं तमश्चैव तमस्सत्वं रजस्तथा तमस्सत्वं रजस्तथा। सर्वद्वारेषु देहेस्मिन् सर्वद्वारेषु देहेस्मिन् प्रकाश उपजायते प्रकाश उपजायते। ज्ञानं यदा तदा विद्यात् ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत विवृद्धं सत्त्वमित्युत। लोभप्रवृत्तिरारम्भः लोभप्रवृत्तिरारम्भः कर्मणामशमस्पृहा कर्मणामशमस्पृहा। रजस्येतानि जायन्ते रजस्येतानि जायन्ते विवृद्धे भरतर्षभ विवृद्धे भरतर्षभ। अप्रकाशो प्रवृत्तिश्च अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च प्रमादो मोह एव च। तमस्येतानि जायन्ते तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन विवृद्धे कुरु नन्दन। यदा सत्वे प्रवृद्धे तु यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् प्रलयं याति देहभृत्। तदोत्तमविदां लोकान् तदोत्तमविदां लोकाम् अमलान् प्रतिपद्यते अमलान् प्रतिपद्यते। रजसि प्रलयं गत्वा रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि तथा प्रलीनस्तमसि मूढयोनिषु जायते मूढयोनिषु जायते। कर्मणः सुकृतस्याहुः कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलं सात्विकं निर्मलं फलं। रजसस्तु फलं दुःखं रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम् अज्ञानं तमसः फलम्। सत्वात् सञ्जायते ज्ञानं सत्वात् सञ्जायते ज्ञानं रजसो लोभ एव च रजसो लोभ एव च। प्रमादमोहौ तमसः प्रमादमोहौ तमसः भवतो अज्ञानमेव च भवतो अज्ञानमेव च। ऊर्ध्वं गच्छन्ति सत्त्वस्थाः ऊर्ध्वं गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः मध्ये तिष्ठन्ति राजसाः जगन्य गुणवृत्तिस्थाः जघन्य गुणवृत्तिस्ताः अधो गच्छन्ति तामसाः अधो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारं नान्यं गुणेभ्यः कर्तारं यदा दृष्टानुपश्यति यदा दृष्टानुपश्यति गुणेभ्यश्च परं वेत्ति गुणेभ्यश्च परं वेत्ति मद्भावं सोधि गच्छति मद्भावं सोधि गच्छति गुणानेतानतीत्यत्रीन् गुणानेतानतीत्यत्रीन् देही देह समुद्भवान् देही देह समुद्भवान् जन्म मृत्यु जरा दुःखैः जन्म मृत्यु जरा दुःखैः विमुक्तो अमृतमश्नुते विमुक्तो अमृतमश्नुते अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानेतान् कैर्लिङ्गैस्त्रीन् गुणानेतान् अतीतो भवति प्रभो अतीतो भवति प्रभो किमाचार कथं चैतान् किमाचार कथं चैतान् त्रीन् गुणान् अतिवर्तते त्रीन् गुणान् अतिवर्तते श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च प्रकाशं च प्रवृत्तं च मोहमेव च पाण्डवा मोहमेव च पाण्डवा न द्वेष्टि संप्रवृत्ताने न द्वेष्टि संप्रवृत्ताने न निवृत्तानि कांक्षति न निवृत्तानि कांक्षति उदासीनवदासीनः उदासीनवदासीनः गुणैर्यो न विचाल्यते गुणैर्यो न विचाल्यते गुणावर्तन्त इत्येव गुणावर्तन्त इत्येव योवत्तिष्ठति नेङ्गते योवत्तिष्ठति नेङ्गते समदुःख सुख स्वस्थः समदुःख सुख स्वस्थः समलोष्टाश्मकाञ्चनः समलोष्टाश्मकाञ्चनः तुल्यप्रियाप्रियो धीरः तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्मसंस्तुतिः तुल्यनिन्दात्मसंस्तुतिः मानापमानयोस्तुल्यः मानापमानयोस्तुल्यः तुल्यो मित्रारिपक्ष्ययोः तुल्यो मित्रारिपक्ष्ययोः सर्वारम्भपरित्यागी सर्वारम्भपरित्यागी गुणातीत स उच्यते गुणातीत स उच्यते मां च यो व्यभिचारेण मां च यो व्यभिचारेण भक्तियोगेन सेवते भक्तियोगेन सेवते सगुणान् समतीत्यैतान् सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाहम् ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च अमृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च सुखस्यैकान्तिकस्य च